गणपतिगुंहवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पतान शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवती धीनामभित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उदोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यातरिषु शिवतमा शिवम् बभूव ते धनुः शिवाशरव्याया तवतया नो रुद्रमृडया या ते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिशाकशी यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यता नः सर्वविज्जगत यक्ष्मगुम् सुमना असत् अद्य वो चरति भक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाञ्जम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहार्यः उदैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रवञ्च धन्वनस्त्वमुभयोराज्ञयोर्ज्याम् यास्य ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगु सहस्राक्षशतेषु ते निशील्यशल्यानामुका शिवो न सुमना भव विज्यम् धनुः कपद्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुलस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूव ते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधाया नादताय दृष्टवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युजयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे नान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो హరికేశేభ్యః పశూనా పతయే నమో నమః సస్మిన్ జలాయ కృషేమతే పతీనాం పతయే నమో నమో బభ్లుషాయ వ్యాధినేందానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయాదతావిని క్షేత్రాణాం పతయే నమో నమః సూతాయాహంత్యాయవనానాం పతయే నమో నమో రోహితాయస్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయచక్షాణాం పతయే నమో నమో భువంతయే వారివస్తృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృత్సవీతాయ ధావతే సత్వనాం పతయే నమః నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కగుపాయ నిషంగిణే సేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే సాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః శ్రికావిభ్యో జిగాగుం సద్భ్యోముష్టతాం పతయే నమో నమో శివభ్యో నక్తం చరభ్యః ప్రకృందానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంజానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రజిలధానేభ్యశ్చ వో నమో నమ ఆయక్షద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమస్తిష్టద్భ్యో దావభ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుం హదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో ప్రాతేభ్యో ప్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః చుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రతేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మాలేభ్యశ్చ వో నమో నమ పుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుభ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ స్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః సర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శృతికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీరుష్టమాయ జేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహదే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆచమే చాచిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్ధ్వాయ చ వస్వన్యాయ చ నమః శోధస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమః సోభ్యాయ చ ప్రతిసర్గ్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురకాయ చ నమః శూరాయ చ వవిందతే చ నమో వర్మిణే చ వరోధినే చ నమో భిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దందుభ్యాయ చ హరణ్యాయ చ నమో విష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో రిషంగిణే చేషు ధీమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ భట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఇంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే జాలీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ వయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కోల్యాయ చ నమః పార్యాయ చ భార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆకార్యాయ చ లాద్యాయ చ నమః షష్ప్యాయ చ భేణ్యాయ చ నమః శిఖత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్టాయ చ నమో హృదయాయ చ నివేష్ప్యాయ చ నమః पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णजद्याय च नमो पगुरमाणाय च भिद्धते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धदस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् आभेर्मारोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वा भेषजे शिवा रुद्रस्य भेषजे तयानो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यदा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुरम् मृडानो रुद्रोदनोमयस्कृति क्षयद्वीराय नमसा विधेमते यच्चन्तयोश्यमनुरायजे पिता ददश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदेर् अविष्मन्तो नमसा विधेमते आराते गो न उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा जनो अधिकदेव रोह्यदा जनः शर्म यच्च त्रिबर्हाः सुहृश्रुतम् गत्तदैन्युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते आसन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्मृणत्तु परित्वेषस्य दुर्मतिरधायो अवस्थिरा मगवद्भ्यस्तनुष्वमेव शोकायतनयाय मृडया मेदुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत् वसा न आचर पिनाकम् बिभ्रदागहे त्रिकेदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगु एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः ता स्वामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जने वधन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधि नीलग्रीवाशिकण्ठा शर्वा अलः क्षमाचराः नीलग्रीवाशिकण्ठादिवगुम् रुद्रा उपश्रुताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम्बधिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रजनन्ति शृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिव्ये शामन्नम् वालो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोद्वास्तेभ्यो नमस्ते नो मृगयन्तु ते यम् दिष्पो यश्च नो द्वेष्टितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नयो अप्सु य ओषधेषु यो रुद्रो विश्व भुवनादिवे रदस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तले तान् यज्ञस्य मायया सर्वान् वयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पारि तमस्तु ह्यस्वशः सुधन्वायो विश्वस्य क्षयदिवे सजस्य यक्ष्वाहेसौ मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य अयम् मे अस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगो शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोऽश्च मे प्रसोऽश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मे नम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे क्षामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दायश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजरश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मौपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृच्छम आधवनीयश्च म आग्नेद्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे ववृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शर्करीरङ्गुलयोगिशश्च मे यज्ञेन कल्पं ताम्रुच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रजं तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वक्षाश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्ठवाच्च मे पष्ठौ हि च मवुक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नड्वां च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च यस्नियस्त्यान्त्यायनस्त्यान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानि सगुंसिषद्विश्वे देवासूक्तवाच पृथिवीमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तो शान्ति शान्ति शान्तिः। ॐ तच्छैयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा। अतोज्यायागश्च पुरुषः पारोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्वदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् व्यक्रामत् साशदानशने अभि तस्माद्विराडजायत। विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्भविः सप्तास्यासन् परितयः त्रिसप्तसमिदः कृताः देवा यद्यज्ञम् तन्वानाः अभद्रन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदार्ज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कथिता व्यकल्पयन् मुखम् किमस्य कौ बाहो तावोरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्षाद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम्बकल्पयन् वेदाहमेकम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् ग्रामम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकोर्भिम् तु विदेष्टम् तु विमगम् तु विमात्रमवोभिः न हि त्वा शूरदेवानवर्ता सोधित्सन्तम् भीमम् नगाम् वारयन्ते एतोन्विन्द्रम् स्तवामेषाणम् वस्वस्वराजम् नराधसामद्भिषन्नः प्रस्तोषदुपगादिशक्ष्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाविसव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाग् उपक्रमस्वा भरदृषदा दृष्णो जनानाम् अधाशोश्चरस्य वेदः इन्द्रयवुनुते अस्ति वाजो विप्रे विस्सरित्वः अस्माभिः श्रुतम् सनुहे सद्योजुमस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशेश्च वक्षो जलन्ते गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतान शृण्वन्नोतिभिः सेदसादनम् निषुषेजगणपते गणेशुत्वा मा उर्विप्रथमम् करीना नरुते त्वक्रियते किञ्चनारे महावर्गम् मघवम् चित्रमच्च अभिख्यानो मघवन्नादमानान् सखे बोधिवसुपते सखेनाम् प्रणम् कृधिरणगृच्छत्यशुष्पा भक्ते चिदाभजाये अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कालेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधाहि तथा हि तत् खन्फन्वसे ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा या विषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् सरस्वत्यैर्भैषज्येन वीर्यायान्नाद्याया विषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्याम् उष्णो हस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते त्वा साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तराम् देवयज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते ಸಮಸ್ತೆ ಯದನೇನ ಹವಿಷಾಸ್ತೆ ತದಸ್ಯಾತ ಹೃದ್ಯಾತ್ ತದಸ್ಮೈ ದೇವಾರಾಶಂತಾಂ ದ್ರಿಪದಾದಿವೇನ ಮುಮುಚಾರಃ ಚಿನ್ನಸ್ನಾದ್ವಿಮಲಾದಿವ ಭೂತಂ ಪವಿತ್ರೇಣೇವಾಜ್ಯಂ ಆಪಶುಂಧಂತು ಮೈನಸಃ ಭೂರ್ಭುವತ್ಸು ಭೋರ್ಭೂರ್ಭುವತ್ಸು ಭೋರ್ಭುವತ್ಸುವ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಪೂರ್ಣಮದಃ ಪೂರ್ಣಮಿದಂ ಪೂರ್ಣಾತ್ ಪೂರ್ಣಮುದಚ್ಯತೆ ಪೂರ್ಣಸ್ಯ ಪೂರ್ಣಮಾದಾಯ ಪೂರ್ಣಮೇವಾವಶಿಷ್ಯತೆ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಈಶಾವಾಸ್ಯಮಿದಗುಂ ಸರ್ವಂ ಯತ್ಕಿಂಚ ಜಗತ್ಯಾಂ ಜಗತ್ ತೇನ ತ್ಯಕ್ತೇನ ಪುಂಜೇತಾಮಾರುದ ಕಸ್ಯ ಸ್ವಿದ್ಧನಂ ಕುರ್ವನ್ನೇವೇಹ ಕರ್ಮಾನಿ ಜಿಜೀವಿಷೆ ಶತಗುಂಸಮಾಃ ಏವಂ ತ್ವಯಿ ನಾನ್ಯತೇತೋಸ್ತಿ ನ ಕರ್ಮ ಲಿಪ್ಯತೆ ನರೇ ಅಸುರ್ಯಾನಾಮತೆ ಲೋಕ ಅಂಧೇನ ತಮಸಾವೃತಾಃ ತಾಗುಸ್ತೆ ಪ್ರೇತ್ಯಾದಿ ಗಚ್ಛಂತಿ ಯೇ ಕೇಚಾತ್ಮನೋ ಜನಾಃ ಅನೇಜದೇಕಂ ಮನಸೋ ಜವೀಯೋ ನೈನದ್ದೇವಾ ಪ್ರುವನ್ ಪೂರ್ವವರ್ಷತ್ ತದ್ಧಾವತೋನ್ನಾನ್ಯತ್ತೇ ತಿಷ್ಟತ್ ತಸ್ಮಿನ್ ನಪೋ ಮಾತರಿಶ್ವಾ ದಧಾತಿ ತದೇ ಜದಿ ತನ್ನೇ ಜದಿ ತದ್ದೂರೇ ತದ್ವಂತಿಕೇ ತದಂತರಸ್ಯ ಸರ್ವಸ್ಯ ತದು ಸರ್ವಸ್ಯಾಸ್ಯ ವಾಹ್ಯತಃ ಯಸ್ತು ಸರ್ವಾಣಿ ಭೂತಾನ್ಯಾತ್ಮನ್ಯೇವಾನುಪಶ್ಯತಿ ಸರ್ವಭೂತೇಷು ಚಾತ್ಮಾರಂ ತಥೋ ನ ವಿಜುಗುಪ್ಸತೆ ಯಸ್ಮಿನ್ ಸರ್ವಾಣಿ ಭೂತಾನ್ಯಾತ್ಮೈವಾಭೂ ದ್ವಿಜಾನತಃ ತತ್ರ ಕೋ ಮೋಹಃ ಶೋಕ ಏಕತ್ವಮನುಪಶ್ಯತಃ ಸಪರ್ಯಗಾಕ್ಷುಕ್ರಮಕಾಯಮವೃಣವಸ್ನಾರಿರಗುಂ ಶುದ್ಧಮಪಾಪವಿದ್ಧಂ ಕವಿರ್ಮನೀಷೇ ಪರಿಭೋ ಸ್ವಯಂಭೂರ್ಯಾರ್ತಾಚ್ಯಥೋರ್ಧಾಚ್ಯಾಶ್ವತೇಭ್ಯಃ ಸಮಾಭ್ಯಃ ಅಂಧಂ ತವ ಪ್ರವಿಶಂತಿ ಯೇ ವಿದ್ಯಾಮುಪಾಸತೆ ತಥೋ ಭೂಯ ಇವ ತೇ ತಮೋಯೌ ವಿದ್ಯಾಯಾಗುಂ ರಥಾಃ ಅನ್ಯದೇವಾಹುರ್ವಿದ್ಯಯಾ ಅನ್ಯದಾಹುರವಿದ್ಯಯಾ ಇತಿ ಶುಶ್ರುಮಧೀರಾಣಾಂ ಯೇನಸ್ತದ್ವಿಜ ಚಕ್ಷಿರೇ ವಿದ್ಯಾಂ ಚ ವಿದ್ಯಾಂ ಚ ಯಸ್ತತ್ವೇ ದೋಭಯಗುಂಸಃ ಅವಿದ್ಯಯಾ ಮೃತ್ಯುಂ ತೀರ್ವಾ ವಿದ್ಯಯಾ ಮೃತಮಶ್ನುತೇ ಅಂಧಂ ತಮ ಪ್ರವಿಶಂತಿ ಯೇ ಸಂಭೂತಿಮುಪಾಸತೆ ತಥೋ ಭೂಯ ಇವ ತೇ ತಮೋಯೌ ಸಂಭೂತ್ಯಾಗುಂ ರಥಾಃ ಅನ್ಯದೇವಾಹುಃ ಸಂಭವಾದನ್ಯದಾಹುರಸಂ ಭವಾತ್ ಇತಿ ಶುಶ್ರುಮಧೀರಾಣಾಂ ಯೇನಸ್ತದ್ವಿಜ ಚಕ್ಷಿರೇ सम्भोतिम् च विनाशम् च यस्तद्वेदोपयगुंसः विनाशेन मृत्युम् तेर्द्वा सम्भोत्या मृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापेतम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्नेतर्षेयमसूर्यप्राजा पत्यव्यो हरश्वीन् समोहतेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुररिलममृतमधेदम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्नेन यसुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोज्यस्मज्जुहुरानमेनो भूयिष्ठाम् तेन म उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः तनः पर्शरणि दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफले सुदुष्टा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ओश्च पृथ्वी बहुलान उर्वे भवातो कार्यतनया यशय्योः विश्वानि नो दुर्गा जातवेधः सिन्धुर्न नाम दुरितातिपर्शे अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् गोद्यविदा तनूनाम् कृतनाजितगुंसहमानमुग्रमग्निगुम् हुवेव परमात् सरस्तात् सरः पर्षदति दुर्गानि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्रोषिकमेद्यो अध्वरेषु सनाच्छहोत नव्यस्य सत्से स्वाञ्चाग्ने तनुवम् पिप्रयस्वा स्वव्यञ्जसौ भगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णो ननुसञ्चरेमा नाकस्य पृष्ठमपि संवसा नो वैष्णवे लोकैहमादयन्ताम् कात्यायनाय विद्महे कन्याकुमारि धीमहे तन्नो दुर्गे प्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विव्राजरे तद्यदयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थ सन्न्यासयोगात्यथयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेष्वभूत् यत्पुण्डरीकम् पुरमद्य सद्गस्तम् तत्रापि दह्रम् जगदम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् యో వేదాదౌ స్వర ప్రోక్తో వేదాంతే చ ప్రతిష్ఠితః తస్య ప్రకృతినేనస్య యః పరస్స మహేశ్వరః స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేన మహీమహీషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శా